श्री सीताराम चंद्राभ्याम नमः। श्रीमद्वाल्मीकीय रामायणं बालकांडं त्रयोविंशः सर्गः। भातायां तु शर्वर्यां विश्वामित्रो महामुनिः अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे। कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते। उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाहनिकम्। तस्यर्षेह परमोदारं वचः श्रुत्वा नरोत्तमौ स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्। कृताहनिकौ महावीर्यौ विश्वामित्रं तपोधनम् अभिवाद्याति संहृष्टौ गमनायाभितस्थतुः। तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीं ददृशाते ततस्तत्र सरैवाः संगमे शुभे। तत्राश्रमपदं पुण्यं ऋषीणां भावितात्मनां बहुवर्षसहस्राणि तप्यतां परमं तपः। तं दृष्ट्वा परम प्रीतौ राघवौ पुण्यमाश्रमं पूचतुस्तं महात्मानं विश्वामित्रमिदं वचः। कस्यायमाश्रमः पुण्यः कोन्वस्मिन् वसते पुमान् भगवच्छ्रोतुमिच्छावः परं कौतूहलं हिनौ। अयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः। कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः तपस्यन्तम् इह स्थाणुं नियमेन समाहितम्। कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणं धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना। अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मते। तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मनः अशरीरः कृतः कामः क्रोधात् देवेश्वरेण। अनङ्ग इति विख्यातः तदा प्रभृति राघव स चाङ्गविषयः श्रीमान् यत्राङ्गं समुमोचः। तस्यायमाश्रमः पुण्यः तस्येमे मुनयः पुरा शिष्याधर्मपरावीर तेषां पापं न विद्यते। इहाद्य रजनीं राम वसेम शुभदर्शन पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्। अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् इह वासः परोऽस्माकं सुखं वत्स्यामहे निशाम्। स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तमा तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा। विज्ञाय परमप्रीता मुनयो हर्षमागमन् अर्घ्यं पाद्यं तथा तिथ्यं निवेद्य कुशिकात्मजे रामलक्ष्मणयोः पश्चात् अकुर्वन् अतिथिक्रियां सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् यथार्हं जपन् संध्यां ऋषयस्ते समाहिताः तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा कथाभिराभिरामौ नृपात्मजौ रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः।